चरमाणोऽव्यवलोकयते स्म पञ्चस्कन्धांश्च स्वभाव शून्यान् पश्यति स्म हिशारिपुत्र रूपं शून्यतैव रूपम् रूपान्न पृथक् शून्यता सर्वबुद्धा प्रज्ञापारमिताम् आश्रित्य अनुत्तराम् संबोधिम् अभिसंबुद्धाः तस्माद् ज्ञातव्यम् महामन्त्रो महाविद्यामन्त्रो अनुत्तरमन्त्रो असमसममन्त्रः सर्वदुःखप्रशमनः सत्यम् अमित्यत्वात् प्रज्ञापारमितायां को मन्त्रः तद्यथा
I did.